येनाक्षरसमाम् नायमधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः तमश्चाज्ञानजम् भिन्नम् तस्मै पाणिनये नमः। ऐवुण् रुल्लुक् ए ओं अय्यौच हयवरट् लण् ण्यमङणनम् झभै घढधष् जबगडदश् खाफा छाठाथ जटतौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि। सर्वेभ्यो नमः। पञ्चमा कक्षायां वयम् उपतिष्ठामहे। गतसप्ताहे अस्माभिः सूत्रभेदानां विषये सामान्यः परिचयः प्राप्तुं सामान्यं परिचयं प्राप्तुं अस्माभिः यत्नः कृतः। तत्र बहूनां सन्देहाः आसन्, बहवः विचाराः मयापि नोक्ताः। ते विचाराः अद्य अत्र मया वक्ष्यन्ते। कक्ष्या अद्य केवलं गतसप्ताहस्य विचारान् वक्तुमेव उपयुज्यते। ते विचाराः सम्यक् अधिगन्तव्याः इति मे मतिः। अतः तान् विचारान् उक्त्वा अद्यतनकक्षां समापयिष्यामि। प्रायः अर्धघण्टात्मिका कक्ष्या स्यात् अद्य। अस्तु, कक्षाम् अग्रे धारयामः। गतसप्ताहे सूत्राणां लक्षणादिकं दृष्ट्वा सूत्रभेदाः दृष्टाः, यथा संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् इत्युक्तम्। पुनश्च उच्चारयामि, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्। सूत्राणि षड्विधानि सन्ति इत्युक्तम्। तथा हि संज्ञासूत्राणि, परिभाषासूत्राणि, विधिसूत्राणि, नियमसूत्राणि, अतिदेशसूत्राणि, अधिकारसूत्राणि इत्येवं षड्विधानि सूत्राणि सन्ति। तत्र हि संज्ञासूत्राणि एतेषां संज्ञासूत्राणि नाम संज्ञासंज्ञीप्रत्यायकं सूत्रं संज्ञासूत्रं भवति। संज्ञासंज्ञीप्रत्यायकं सूत्रं संज्ञासूत्रं भवति। तत्र किं संज्ञासंज्ञीप्रत्यायकं सूत्रम् इति चेत्, प्रायः अस्माभिः दृश्यते एकस्य समुदायस्य कश्चन गणः अस्ति अथवा समुदायः अस्ति, तस्य प्रत्येकमपि मनुष्यस्य अथवा प्रत्येकमपि वस्तुविशेषस्य नामोल्लेखः क्लेशाय भवति इति कृत्वा सामान्यतया वयं समुदायस्य एकं नाम दद्मः। उदाहरणार्थं बहवः छात्राः युगपत् एकस्यां कक्ष्यायां भवन्ति। तत्र एकैकं छात्रम् आह्वातुं क्लेशः अनुभूयते इति तत्र तस्य कक्षायाः किञ्चित् नामकरणं क्रियते, एम् ए बि ए इत्यादि। उदाहरणान्तरं किञ्चित् दातुम् इच्छामि। प्रायः गृहे ये कार्यं कुर्वन्ति, पाकादिकं कुर्वन्ति, किं प्रतिवस्तुनः स्थालिकामानयतु, चषकमानयतु, कटाहमानयतु, द्रोणीमानयतु इत्येकैकशः प्रयोगकरणे सारल्यमनुभवामः, अथवा पात्राणि आनयतु इति कथने सारल्यमनुभवामः, एतानि पात्राणि इति कथनं सरलं वा, एकैकशः नामोच्चारणं सरलं वा इति चेत् पात्राणि इति कथनं सरलं भवति, इत्युक्ते समुदायस्य एकं नाम प्रदत्तम् इत्यर्थः। पात्राणां नामानि सन्ति, बहूनां पात्राणां युगपत् नाम उच्चारणम् इत्यादि विशेषः। पात्राणि इति सामान्यतया व्यवहारः क्रियते। तथैव समुदायस्य एक नामकरणम् अस्माकं लाघवाय भवति इत्यर्थः। बहूनां युगपत् उच्चारणे क्लेशः भवति इति कृत्वा तस्य लघुकरणम्। संज्ञासूत्रस्य उदाहरणं शास्त्रे दृश्यते वृद्धिरादैच् इति। वृद्धिरादैच् इति अष्टाध्याय्याः प्रथमं सूत्रं भवति। वृद्धिरादैच् अस्मिन् सूत्रे वृद्धिसंज्ञा विधीयते। अनेन सूत्रेण वृद्धिसंज्ञा उच्यते। वृद्धिः नाम वर्धनम् इत्यर्थः नास्ति अत्र शास्त्रे। वृद्धिः इति आत् ऐच् इत्येतेषां वृद्धि इति संज्ञा। आदैच् नाम के? आत् नाम आकारः, ऐच् नाम ऐच् इति प्रत्याहारः। ऐवण् लुल्लुक् एवोङ् इत्यनन्तरं यद् अयौच् इत्यस्ति, तत्र ऐकारादारभ्य चकारपर्यन्तं ये वर्णास्सन्ति तेभ्यः ऐच् इति सामान्येन व्यवहारः, सामान्येन नाम संज्ञारूपेण व्यवहारः। ऐच् इति ऐच् इत्यनेन ऐकार औकारयोः ग्रहणं भवति। एवञ्च वृद्धिः आद् ऐच् आत् ऐच् इत्यनयोः वृद्धिरिति संज्ञा इत्यायातम्। आकारस्य ऐकारस्य औकारस्य वृद्धिः इति संज्ञा भविष्ये। अर्थात् अत्र शास्त्रे, व्याकरणशास्त्रे भविष्ये सूत्रेषु यत्र यत्र वृद्धिशब्दः श्रूयते तत्र वृद्धिः इत्यनेन आकारस्य ऐकारस्य औकारस्य ग्रहणं भवति इत्यर्थः। अर्थात् वृद्धिरेचि इति एकं सूत्रमस्ति, भविष्ये वयं द्रक्ष्यामः अग्रे एव। वृद्धिरेचि इति एकं सूत्रमस्ति, तत्र सूत्रे वृद्धिः इति शब्दः उच्चारितः। अत्र वृद्धिशब्दस्य कः अर्थः इति सन्देहे सति वृद्धिशब्दस्य आकार ऐकार औकारः अर्थः इति लभ्यते। कथम्? यतोहि आकारस्य ऐकारस्य औकारस्य च वृद्धिरादैच् इति सूत्रेण वृद्धिः इति संज्ञा दत्ता। अतः सा एव संज्ञा शास्त्रेषु, अत्र शास्त्रे आन्तं यावत् वृद्धिरादैच् इति सूत्रमारभ्य अष्टाध्याय्याः अन्तिमं सूत्रं भवति अ आ इति, तावत् पर्यन्तं वृद्धिः इति शब्दः यत्र श्रूयते तत्र आकार ऐकार औकाराणां ग्रहणं भवति इत्यर्थः लब्धः। एवमेव अन्यान्यपि संज्ञासूत्राणि सन्ति। उदाहरणम् अदेङ्गुणः इत्येकम् उदाहरणम् अत्र। एवम् इत् हलन्त्यमिति सूत्राणि इत् संज्ञा। एवं बहूनि सूत्राणि सन्ति येन संज्ञाः विधीयन्ते। संज्ञानाम् उपयोगः लाघवार्थं कृतः। भविष्ये युगपत् सर्वेषां ग्रहणं यथा न स्यात् तदर्थं लाघवार्थं सूत्रं लघु स्यात् इति खलु अस्माभिः पठितम् अल्पाक्षरम् इति अल्पाक्षरसम्पादनाय सूत्रेषु संज्ञाप्रयोगाः कृतः अस्तु अयं विचारः भूत् संज्ञासूत्रविषये संज्ञासूत्रविषये प्रायः कस्यापि सन्देहः नास्ति इति भावयामि अग्रे गमिष्यामः अग्रे अस्ति परिभाषासूत्रम् इति अनियमे नियमकारिणी परिभाषा इत्युच्यते यत्र नियमः नास्ति तत्र नियमार्थम् एतत् सूत्रम् उपयुज्यते यथा लोके वयं पश्यामः यत्र क्वापि नियमः न भवति तत्र नियमं कल्पयामः शालासु इति मया गतसप्ताहे उदाहरणं प्रदत्तम् शालासु यदि समयविधानं न स्यात् दशवादनतः पञ्चवादनपर्यन्तं विद्यालयस्य कालः इति यदि निर्णयः न स्यात् तर्हि छात्राः नियमितरूपेण तत्र व्यवहारे अशक्ताः स्युः यदि दशवादनतः पञ्चवादनं विद्यालयस्य कालांशः इति नियमः न स्यात् तर्हि अनियमः स्यात् अनियमे सति किं स्यात् छात्राः यथेच्छं विद्यालयम् आगच्छेयुः अध्यापकाश्च यथेच्छं विद्यालयम् आगच्छेयुः यस्य अध्यापकस्य कालांशः भवति सः अध्यापकः तत्र न स्यात् छात्रः भविष्यति इत्येवम् अनियमः स्यात् कदाचित् अध्यापकः स्यात् छात्रः न स्यात् अपरोऽपि अनियमः प्रसक्तः एतादृशेषु अनियमेषु क्लेशः स्यात् इति कृत्वा कश्चन नियमः कल्प्यते तादृशनियमस्यैव अत्र शास्त्रे परिभाषासूत्रम् इत्युच्यते शास्त्रे कथं तादृशः नियमः उच्यते इति चेत् अत्र उदाहरणं प्रदत्तं तस्मिन्निति निर्दिष्टे पूर्वस्य इति तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यस्ति इदानीं तस्य सूत्रस्य अर्थः भवति यत्र सप्तमी निर्देशः भवति तत्र पूर्वस्य कार्यं भवति इति सूत्रस्य अर्थः यदि तत् सूत्रं न स्यात् तस्मिन्निति निर्दिष्टे पूर्वस्य इति सूत्रमस्ति सप्तमी निर्देशः यस्य कृतः सूत्रे ततः पूर्वस्य कार्यं भवति इत्यर्थः यदि तत् सूत्रं न स्यात् तस्मिन्निति निर्दिष्टे पूर्वस्य इति सूत्रं नास्ति इति चिन्त्यताम् इति सूत्रमेव नास्ति तर्हि इदानीम् इको यणचि इति एकं सूत्रमस्ति इकः स्थाने यण् भवति अचि इति सप्तमी अच् इति शब्दस्य अच् अचौ अचः इति रूपाणि भवन्ति तस्य सप्तमी एकवचने रूपं भवति अचि यथा रामशब्दस्य रामे इति रूपं भवति तद्वत् यथा रामशब्दस्य रामे इति सप्तमी एकवचनं भवति तद्वत् अच् शब्दस्य सप्तमी एकवचनं भवति अचि इति एवञ्च अचि इत्युक्ते कः अर्थः किम् अचि इति अच् अनन्तरं वा अज् उपरि एव वा अचः पार्श्वे वा इत्येवं सन्देहाः जायन्ते तादृशाः सन्देहाः अनेन सूत्रेण वार्यते परिभाषासूत्रेण अत्र इदानीम् अनियमः जातः कुत्र कार्यं कर्तव्यमिति एवञ्च अनियमे सति नियमं करोति तस्मिन्निति निर्दिष्टे पूर्वस्य इति अर्थात् पूर्वस्य कार्यं भवति इत्यर्थः लभ्यते अन्यदेकम् उदाहरणं अन्येन उदाहरणेन किञ्चित् स्पष्टं करोमि इदानीम् इको गुणवृद्धि इति एका परिभाषा अस्ति परिभाषासूत्रमेकम् మిదేర్ గుణః ఇతి ఏకం సూత్రమస్తి. మిదేర్ గుణః, మిదేహ గుణః భవతి ఇతి. మిద్ ఇతి ధాతుః, తస్య గుణః భవతి ఇత్యుచ్యతే. తస్య స్థానే గుణః భవతి, కిం మకారస్య స్థానే వా దకారస్య స్థానే వా ఇకారస్య స్థానే వా ఇతి సందేహః జాయతే. ఏవం సందేహే సతి పరిభ అనియమః ప్రసక్తః. కదాచిత్ మకారస్య గుణః స్యాత్, కదాచిత్ ఇకారస్య గుణః స్యాత్, కదాచిత్ దకారస్య గుణః స్యాత్. ఏవం యదా అనియమః ప్రసక్తః తదా ఏతత్ సూత్రముక్తం అనియమే నియమకారిణి పరిభాష ఇది ఖలు. పరిభాషా సూత్రముక్తం ఇకో గుణ వృద్ధి, యత్ర గుణవృద్ధి భవతి గుణవృద్ధి ముచ్చార్య గుణవృద్ధి విధీయతే తత్ర ఇకః గుణః భవతి. ఇక్ నామ ఇ ఉ ఋ లు. ఐవన్ ఋలుక్ ఇత్యత్ర ఇకారాత్ ఆరభ్య ఋలుక్ ఇత్యత్ర యః ఖకారః అస్తి తత్ర పర్యంతం ఇక్ భవతి. ఇక్ నామ ఇ ఉ ఋ లు ఇత్యేవం చత్వారః వర్ణాః. ఏవం చ యత్ర గుణ వృద్ధి ఇత్యేవం ఉచ్చార్య గుణ వృద్ధి విధీయతే తత్ర ఇక్ వర్ణానాం గుణవృద్ధి భవతి ఇత్యర్థః లబ్ధః. ఏవం చ నియమః కృతః. మిదేర్ గుణః ఇత్యత్ర యదా మకారస్య ఇకారస్య దకారస్య చ గుణః ప్రాప్తః తదా ఇకో గుణవృద్ధి ఇతి సూత్రేణ తత్ర ఇకారస్య గుణః భవతి ఇతి నియమః క్రియతే. ఇత్యేవం పరిభాషాయాః లక్షణం. అనియమే నియమకారిణి పరిభాషా ఇత్యర్థః. యత్ర నియమః న భవతి తత్ర నియమం కరోతి పరిభాషా సూత్రం. అధునా విధి సూత్ర విషయ అవగచ్చామః. ఆదేశాది విధాయకం సూత్రం విధి సూత్రం. సంజ్ఞా సూత్రాణి ఉక్తాని పరిభాషా సూత్రాణి చ జ్ఞాతాని. ఏవంచ విధి సూత్రం నామ ఏతాన్ ఆశ్రిత్య కించిత్ కార్యం. విధి సూత్రం నామ కార్యసూత్రం ఇత్యర్థ. సామాన్యతయార్థ కార్యసూత్రం. ఏన సూత్రేణ కించిత్ కార్యం భవతి తత్ సూత్రం కార్యసూత్రం విధి సూత్రం ఇత్యుచ్యతే. విధీయతే కించిత్, కించిత్ కార్యం విధీయతే ఇత్యర్థ. యథా భవద్భిః ప్రాయః గణేశః ఇతి పదం సర్వైః జ్ఞాయతే. గణేశః ఇతి గణ ఈశః ఇత్యస్తి. గణానాం ఈశః గణేశః భవతి. తత్ర గణ ఈశః ఇతి పద ఇతి పదద్వయం ఇతి చింత్యతాం. తత్ర గణ ఈశః ఇతి స్థితే ఆకా గణేశ ఇతి కథం భవతి ఇతి సందేహ భవతి. గణ ఈశ ఇతి పదం భిన్నం భిన్నం పదం. ఏవం భిన్నయోః పదయోః గణేశః ఇతి కథం అభవత్. గణ ఇత్యత్ర అకారః అస్తి అంతిమే, ఈశ ఇత్యత్ర ఈకారః అస్తి ఆదౌ. గణేశ ఇత్యత్ర ఏకారః అస్తి ఖలు, కథం ఏవం సంజాతం ఇతి సందేహా జాయతే. తత్ర సందేహే సతి ఆద్గుణః ఇతి ఏకం విధి సూత్రం. కార్యం కరోతి, కిమితి కార్యం, అకార ఇకారయోః యోజనం కృత్వా ఏకారం కరోతి. ఆదేశః అకార ఇకారయోః స్థానే ఆదేశః భవతి. ఆదేశః నామ ఆదేశ ఏవం ఆగమ ఇతి పదద్వయమస్తి అస్మాం శాస్త్రే వ్యాకరణ శాస్త్రే. ఆదేశః నామ శత్రువత్ ఆదేశః ఇత్యుచ్యతే. శత్రువత్ ఆదేశః, శత్రువు కథం భవతి? ఇదానీం కక్ష్యాయాః ఉదాహరణమేవ మయా స్వీక్రియతే. కశ్చిత్ ఛాత్రః ఉపవిష్టః అస్తి ఆసందే, తస్య యది శత్రువు భవతి సః కిం కరిష్యతి? తం సంపూర్ణతయా ఉత్థాప్య స్వయం ఉపవిశతి తస్మిన్ స్థానే. కిమర్థం? అన్యత్ర స్థానం నాస్తి, అతః కిం కరోతి? తం ఉత్థాప్య తస్య పార్శ్వే తస్య స్థానే ఉపవిశతి. అయం శత్రోః స్వభావః. సః శత్రువు కిం ఇచ్ఛతి? స్వశత్రోః స్థానం న స్యాత్, అహం తత్స్థానే భవేయం ఇతి విచింత్య సః తం అన్యం పురుషం ఉత్థాప్య స్వయం ఉపవిశతి ఇత్యం శత్రోః స్వభావః. తద్వద్ భవతి ఆదేశః. शास्त्रे आदेशः तद्वत् भवति। आदेशः किं करोति? सर्वम् उत्थाप्य स्वयं तिष्ठति। इदानीं पश्यन्तु, गण ईशः इत्यस्ति। गण ईशः इत्यत्र अकार इकार इत्यनयोः स्थाने एकारः आगच्छति। अकारमपि निष्कासयति, इकारमपि निष्कासयति, स स्वयम् उपविशति। प्रायः एकारः महान् स्थूलः स्यात्, स्थलम् अपर्याप्तम् इति कृत्वा द्वावपि निष्कास्य स्वयम् उपविशति सः। एवञ्च अकार एकारयोः स्थाने अकार इकारयोः स्थाने एकारः आगच्छति। इति विधिसूत्रमेकं भवति, आद् अदेङ् आद् गुणः इति। तेन सूत्रेण किमुच्यते? अकार इकारयोः स्थाने एकारः भवति इति कार्यमुच्यते तेन सूत्रेण। आदेशः एकारः आदेशः भवति इति कार्यमुच्यते। अर्थात् इदानीम् अकार इकारयोः स्थाने एकारः भवति चेत् गणेशः इति रूपं भवति। एवञ्च एतादृशानि बहूनि कार्याणि शास्त्रे उक्तानि, तानि यानि कार्यविधायकानि सूत्राणि सन्ति तेषामेव विधिसूत्राणि इति नामधेयम्। इत्येवं विधिसूत्राणां विषये, प्रायः विधिसूत्राणां विषये सर्वेषां सम्मतिः अस्ति, कश्चित् नावगतवान् इति नास्ति इति भावयामि। अग्रे नियमसूत्राणि। प्राप्तस्य विधेः नियामकम् इत्युक्ते नियमसूत्रम् इत्युच्यते। प्राप्तस्य विधेः नियामकम्। अपर शास्त्रे तु एवमुच्यते, सिद्धे सत्यारभ्यमानो विधिः नियमाय भवति। सिद्धे सत्यारभ्यमानो विधिः नियमः भवति इत्यर्थः। किञ्चित् कार्यं सिद्धम्, तस्य पुनः तादृशमेव किञ्चित् कार्यं कर्तव्यम् इति उच्यते चेत् तत्र किञ्चित् विशिष्टमस्ति, अतः एवमुच्यते इत्यर्थः अस्माभिः अवगम्यते। उदाहरणार्थम् पाकं करोतु इत्युच्यते। उदाहरणार्थम् इदानीं प्रायः इड्लिदोसा इत्यादिकं सर्वैः ज्ञायते इति भावयामि, तद् भावयित्वा एतद् उदाहरणं ददामि, नो चेत् उदाहरणान्तरं पुनः दास्यामि। माषदालसम्बन्धि पाकं करोतु इत्युच्यते। माषदालसम्बन्धि पाकं करोतु इति। माषदालसम्बन्धि पाकेषु किं किं भवति? इड्ली, दोसा, वडा सर्वं भवति। तथैव तदुक्त्वा पुनः उच्यते केनचित् इड्लि करोतु इति। माषद इदानीं मातुः समीपे एकः मातुः समीपे पुत्रः वदति माषदालसम्बन्धि पाकं करोतु इत्युक्त्वा किञ्चित् पञ्चनिमेषानन्तरं पुनः वदति इड्लि करोतु इति। इदानीं माषदालसम्बन्धि पाकं करोतु इत्यनेनैव इड्लि निर्माणं भवति खलु, इड्लि दोसा सर्वं निर्मास्यति माता। तथापि पुनः अयं किमर्थं वदति इड्लि करोतु इति? यतोहि इड्लि एव करोतु, दोसा वडा इत्यादिकं मास्तु इत्यर्थः लभ्यते खलु। तदेव स एव नियमः भवति, नियमं करोति पुत्रः, माता यदि माषदालस्य पाकः माषदालसम्बन्धि पाकः क्रियते तर्हि सः पाकः इड्लि एव स्यात्, दोसा न भवेत्, वडा वा न भवेत् इत्येवं नियमः। एवञ्च नियमसूत्रस्य अर्थः एवं भवति। इदानीं नियमसूत्रं नाम कथम् इति चेत् इदानीम् एकं सूत्रं पश्यामः शास्त्रे। पतिः सम शेषोभ्य सखि इति एकं सूत्रमस्ति। शेषोभ्य सखि, शेषोघि असखि, इकारान्त उकारान्तानां घिसंज्ञा भवति इत्युच्यते। इकारान्तानां शब्दानां उकारान्तानां शब्दानां घिसंज्ञा भवति इत्यर्थः अस्य सूत्रस्य। इकारान्तानां शब्दानां उकारान्तानां शब्दानां सर्वेषामपि घि इति संज्ञा भवति इति सूत्रार्थः लब्धः। पतिशब्दः किमन्तः? इकारान्तः खलु। एवम् इकारान्तस्य प्रतिशब्दस्य घिसंज्ञा शेषोऽभ्यसखीति सूत्रेण सिद्धम्। तथापि पुनः एकं सूत्रं पाणिनिना उक्तं, पतिः समास एव इति। पतिः समास एव, पतिशब्दस्य घिसंज्ञा समासे भवति इत्युक्तम्। कः अर्थः? पतिशब्दस्य यदि समासः करणीयः, पतिशब्दस्य यदि घिसंज्ञा वक्तव्या, घि इति संज्ञा वक्तव्या, तर्हि सा संज्ञा समासे एव वक्तव्या। केवलं पतिशब्दस्य, केवलं पतिशब्दः यदि भवति, अर्थात् पति इत्येतावान् शब्दः भवति, तर्हि स यद्यपि इकारान्तः, तथापि तस्य घि इति संज्ञा न भवति। भूपति इत्यत्र तु समासः अस्ति, अतः तत्र घिसंज्ञा भवति इति नियमः क्रियते। यत्र समासः तत्रैव पतिशब्दस्य घिसंज्ञा, पतिशब्दस्य समासे एव घिसंज्ञा इत्यर्थः इति नियमः क्रियते। पतिः समास एव इति सूत्रेण पतिशब्दस्य समासे एव घिसंज्ञा इति नियमः क्रियते। अतः तादृशं सूत्रं यद्भवति तन्नियमसूत्रं भवति। प्राप्तस्य विधेः, काचित् विधिः प्राप्ता, घिसंज्ञा विधिः शेषोऽभ्यसखी इति सूत्रेण प्राप्तः, तादृशस्य प्राप्तस्य घिसंज्ञकस्य विधेः नियामकं भवति पतिः समास एव, पतिशब्दस्य समासे एव घिसंज्ञा भवति इत्युच्यते। इत्येवं नियमसूत्रम्। प्रायः नियमसूत्रविषये सर्वैः अवगतम्। इदानीम् अतिदेशसूत्रम् अवगच्छामः। अतिदेशसूत्रम्, अतिदेशः नाम अतिदिश्यते इति अतिदेशः, अन्यतुल्यत्वविधानम्। अन्यतुल्यत्वविधानम् नाम इदानीं काञ्चित् सुन्दरीं बालिकां दृष्ट्वा कश्चित् ब्रवीति, किमिति? चन्द्र इव मुखम् अस्याः इति। चन्द्र इव मुखम् अस्याः, कः अर्थः? किं चन्द्रः एव मुखे अस्ति इति अर्थः वा? चन्द्रवत् भवति इत्यर्थः वा? चन्द्रवत् अर्थात् चन्द्रसदृशम् अस्ति मुखम् इति उच्यते वा? चन्द्रसदृशम् अस्ति इति खलु उच्यते, चन्द्रसदृशम् मुखम्, सिंहसदृशः पुरुषः इत्यादि उदाहरणानि अस्माभिः दृश्यन्ते। कः अर्थः? सः सिंहः नास्ति, परन्तु सिंहसदृशः अस्ति, सिंहे विद्यमानाः गुणाः तस्मिन् पुरुषे अस्ति, चन्द्रे विद्यमानाः सौन्दर्यादि आह्लादकगुणाः तस्यां स्त्रियां बालिकायां वा कन्यायां वा अस्ति इत्यर्थः लभ्यते। अर्थात् अन्यतुल्यत्वविधानम्, अन्यसदृशः अस्ति इति येन उच्यते, तादृशं सूत्रं यद्भवति तत् अतिदेशसूत्रं भवति। शास्त्रे उदाहरणं भवति स्थानिवदादेशो अनल्विधौ इति एकं सूत्रमस्ति। स्थानिवत् आदेशः, आदेशः स्थानिवत् भवति। स्थानी नाम किम्? आदेशः नाम कः? निमित्तं नाम किम् इति त्रयः विचारास्सन्ति। तान् वयम् अग्रिमकक्षायां द्रक्ष्यामः। इदानीं सामान्यतया परिचयं यच्छामि। स्थानी नाम यस्य स्थाने आदेशः भवति। आदेशः नाम कः इति भवद्भिः ज्ञातः। आदेशः नाम शत्रुवदादेशः, यः एकं वर्णं निष्कर्ष्य सम्पूर्णतया आयाति सः आदेशः। एकमुत्थाप्य सः आगत्य उपविशति चेत् सः आदेशः। यथा गणेश इत्यत्र अकार इकारयोः स्थाने एकारः, एकारः आदेशः, अकार एवमिकारौ स्थानी भवतः इत्येवम्। तत्र स्थानिवत् आदेशः नाम अकार इकारयोः वत् एकारः भवति इत्यर्थः। एकारः अकार इकारयोः वस्तु भवति इत्यर्थः, अर्थात् तुल्यं भवति इत्यर्थः, यथा तेषां स्वभावः तादृश एव स्वभावः अस्यापि भवति इत्यर्थः। एवं सामान्यतया उदाहरणं प्रदत्तम् अन्यतुल्यत्वविधानम्। इदानीं लोकशास्त्रेऽपि किञ्चित् उदाहरणं दीयते अस्य अन्यतुल्यत्वविधानस्य। गुरोः स्थाने शिष्यः याज्ञकुलानि गत्वा अग्रासनादीनि लभते इत्येकम् उदाहरणं शास्त्रे दीयते। एकत्र क्वचित् यज्ञकार्यक्रमः आसीत्, काचित् लघुकथा, एकत्र क्वचित् यज्ञकार्यक्रमः आसीत्, यज्ञः होमः इत्यादि यज्ञकार्यक्रमः आसीत्। तस्मिन् कार्यक्रमे कस्यचित् गुरुकुलस्य गुरुः आहूतः, तस्मै आमन्त्रणं दत्तम्, अयि आचार्याः अवश्यं भवद्भिः आगन्तव्यम्, अस्माकं कार्याणि सम्पादनीयानि, भवताम् आशीः अपेक्षिताः इति। गुरुभिः अङ्गीकृतम्, अवश्यमागमिष्यामि इति। परन्तु कार्यान् प्रधानं किञ्चित् कार्यं गुरुभ्यः आगतम्, किञ्चित् विशिष्टं कार्यं किञ्चित् आगतं, येन च यज्ञकार्यार्थं गन्तुं समयः न प्राप्यते इति तैः चिन्तितं गुरुभिः। अतः गुरुणा किं कृतं, स्वशिष्यं कञ्चित् शिष्यम् ऐशिष्य भवान् गच्छतु, त्वं गच्छ, तेन तत्रस्थकार्यं स्थगितं न स्यात् इत्युक्त्वा स्वशिष्यं प्रेषयति गुरुः। तत्र यत्र यज्ञकार्याणि प्रचलन्ति तत्र गुरोः स्थाने शिष्यः आगतः इति कृत्वा किं व्यवहारः परिवर्तते वा इति चेत् न, यतोहि गुरोः स्थाने आगतः शिष्यः, अतः यथा गुरुभिः सह व्यवहारः क्रियते तथैव व्यवहारः शिष्येण सह अपि करिष्यते। गुरोः कुत्र स्थानं भवति यज्ञे, अग्रे भवति, अग्रासनानि अग्रे आसनं भवति गुरोः, तथैव शिष्याय अपि अग्रे एव आसनं दीयते। एवं भोजनादिविषये अपि शिष्याय प्रधानं स्थानं दीयते। सर्वत्रापि शिष्याय यथा गुरुभिः सह व्यवहारः कर्तव्यः आसीत् तद्वत् अत्र शिष्येण सह अपि व्यवहारः क्रियते। एतत् अन्यतुल्यत्वविधानम्, अन्यः नाम अत्र गुरुः, गुरोः तुल्यत्वविधानं कुत्र क्रियते, शिष्ये क्रियते, शिष्यः गुरुतुल्यः इति। इत्येवम् अतिदेशसूत्रस्य लक्षणम्, अतिदेशसूत्रम् अन्यतुल्यत्वविधानम्। इदानीं सूत्रेषु अन्तिमं सूत्रम् अन्तिमं भवति एतत् सूत्रलक्षणेषु अधिकारसूत्रम् इति। अधिकारो नाम एकत्र उपास्तस्य अन्यत्र व्यापारः। अयं विचारः गतसप्ताहे अस्माभिः बहु विस्तृततया दृष्टम्, तथापि पुनः एकवारं वक्ष्यामि। एकत्र उपास्तस्य अन्यत्र व्यापारः, कश्चित् एकत्र स्थितः अस्ति प्रधानः, सः हेड् प्रधानः, तस्य वस्तुतः तत्स्थाने उपविश्य तस्य न किञ्चित् कार्यम्, तस्मिन् स्थाने तस्य किमपि कार्यं नास्ति, तस्य कार्यं सर्वदा अन्यत्र ये कार्यं कुर्वन्ति तत्र कार्यं भवति तस्य। उदाहरणार्थं कश्चित् मेनेजर् अस्ति एकस्य किमपि कम्पेनी इति चिन्त्यतां, बेङ्क् इति वा चिन्त्यतां, मेनेजर् अस्ति, मेनेजर् यः अस्ति सः यदि आफीस् मध्ये तूष्णीम् उपविशति चेत् तस्य कार्यागारस्य कार्यं चलिष्यति वा इति मम प्रश्नः। सः यदि तूष्णीं द्वारं पिधाय स्व कार्यालये उपविश्य तूष्णीम् उपविशति कार्यालये चेत् कार्यं सिद्ध्यति वा इति सन्देहः, इति प्रश्नः। न सिद्ध्यति खलु, अवश्यं तेन कार्यागारे फैक्टरि मध्ये अथवा बैंक मध्ये के किं किं कार्यं कुर्वन्ति इति द्रष्टव्यं, तेभ्यः कार्यं प्रदातव्यं, तैः सह मिलित्वा सम्भाषणादिकं कृत्वा कार्यं सम्पादनीयम् इत्यादीनि कार्याणि तस्य मैनेजर इत्यस्य भवति। प्रधानस्य यः संस्थायाः प्रधानं भवति, प्रधानः भवति, तस्य तानि कार्याणि भवन्ति। तदेव मया गतसप्ताहे उदाहरणं प्रदत्तमासीत् भगवतः। भगवान् तत्र अस्ति, परन्तु तस्य कार्याणि तावदत्र भूमौ अस्मासु प्रविश्य, अस्मासु भूत्वा कार्याणि सम्पादयति सः भूमौ इति मया उदाहरणं प्रदत्तमासीत्। तस्य तत्र यद्यपि किमपि कार्यं नास्ति, परन्तु तदुत्तरेषु अस्मासु भूत्वा सः कार्याणि सम्पादयति इत्युक्तम्। तद्वदेव अधिकारसूत्रं भवति अत्र शास्त्रे। अधिकारसूत्रं यद्यपि तस्य एकस्मिन् स्थाने तस्य निवेशः कृतः पाणिनिना, एकत्र सूत्ररूपेण पठितं, तत्र सूत्रे तस्य किमपि कार्यं नास्ति, किमपि कार्यं नास्ति, तूष्णीं भवति सः। तस्य कार्यम् अन्यत्र विधिसूत्राणि भवन्ति खलु, तैः सह मिलित्वा कार्यं भवति, अन्यथा तस्य स्वतन्त्रतया सह किमपि तस्य कार्यं नास्ति। इदानीम् एकः अध्यापकः अस्ति इति चिन्त्यताम्। अध्यापकस्य यदि छात्राः न भवन्ति चेत् सः अध्यापकः इति वक्तुं शक्यते वा? यदि छात्राः न भवन्ति चेत् अध्यापकः इति वक्तुं शक्यते वा? न शक्यते। तथैव अधिकारसूत्रमपि केवलम् अधिकारसूत्रत्वेन तस्य एकत्र यदि सः तिष्ठति तर्हि तस्य किम कोऽपि उपयोगः नास्ति। तस्य उपयोगः विधिसूत्रैः सह एव भवति, विधिसूत्रैः सह मिलित्वा एव तस्य प्रयोजनम्। उदाहरणार्थं शास्त्रे प्रत्ययः इति एकमस्ति, प्रत्ययः इति सूत्रम्। सूत्रेण अनेन किमुच्यते? सूत्रेण अनेन किमपि न उच्यते इत्येव वैशिष्ट्यम्। सूत्रेण अनेन किमपि न उच्यते, प्रत्ययः तावदेव, एतावदेव सूत्रम्। किं प्रत्ययः नाम कः इत्यर्थः यदि प्राप्तव्यः तर्हि अस्य अयम् अधिकारसूत्रम्, इदम् अधिकारसूत्रम्। इदं सूत्रं स्व अग्रे विद्यमानेषु सूत्रेषु गच्छति। अग्रे एकं सूत्रमस्ति, गुप् तिज् किद्भ्यः सन् इति सूत्रमस्ति, गुप् तिज् किद्भ्यः सन् इति। तत्र सन् इति यदस्ति सः प्रत्ययः भवति इति, प्रत्ययः इति यत् सूत्रमस्ति तत् तत्र आगच्छति, तत्र आगच्छति गुप् तिज् किद्भ्यः सन् प्रत्ययः इति। गुप् तिज् किद्भ्यः सन् प्रत्ययः सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् प्रत्ययः, णिच् इति प्रत्ययः इत्येवं क्रमेण प्रत्येकं सूत्रं गत्वा तत्र गत्वा वदति प्रत्ययः एषः प्रत्ययः, सन् प्रत्ययः, णिच् प्रत्ययः, चानश् प्रत्ययः इत्येवं सूत्रेषु गत्वा अर्थं सम्पादयति। स्वस्थाने तस्य किमपि कार्यं नास्ति। तदेव अत्र शास्त्रे अधिकारस्य लक्षणम् एवमुक्तम्, स्वस्थले लक्ष्यसंस्कारकबोध अजनकत्वे सति। स्वस्थले स्वयं यत्र तिष्ठति सूत्रं, तत्स्थले लक्ष्यसंस्कारक, लक्ष्यं नाम यथा अत्र इदानीं कुत्र गणेशः इत्यत्र गण ईशः इत्यत्र लक्ष्यं भवति, लक्ष्यं नाम गणेशः इति, गणेशः इति लक्ष्यं, गणेशः इति रूपं साधनीयम्। अस्माकं समीपे पदद्वयमस्ति गण ईशः इति। स्वस्थले लक्ष्यसंस्कारकबोध अजनकत्वे सति, अधिकारसूत्रं तादृशं किमपि कार्यं स्वस्थले न साधयति, बोध अजनकत्वे सति। स्व उत्तरवर्ति, स्व उत्तरवर्ति इत्युक्ते स्व अनन्तरम्, अनन्तरं विद्यमानेषु विधिशास्त्र, शास्त्रं नाम अत्र सूत्रम् इत्यर्थः, विधिसूत्रेषु एकवाक्यतां सम्पाद्य, एकवाक्यता नाम प्रत्ययः इति अनुवर्तते इत्युक्तं खलु, प्रत्येकं सूत्रं गच्छति इति। तत्र गुप्तिच् किद्भ्यः सन् इति एकं सूत्रं, तत्र प्रत्ययः इति सूत्रं योजयन्तु, एकवाक्यता जाता। इदानीम् एकं वाक्यं गुप्तिच् किद्भ्यः सन् प्रत्ययः भवति इत्यर्थः लभ्यते। एकवाक्यतापन्नत्वं तादृशस्यैव अधिकारत्वम् इत्युच्यते। यत् सूत्रं स्वस्थले किमपि कार्यं न सम्पादयति, अन्यत्र विधिसूत्रेषु गत्वा यत् कार्यं सम्पादयति तादृशं सूत्रं यद्भवति तत् अधिकारसूत्रं भवति इत्याय। उदाहरणानि मया उक्तानि अत्र केवलं भवतां स्पष्टप्रतिपत्त्यर्थम् उदाहरणानि प्रदत्तानि, भवन्तः अग्रे तत् द्रष्टुं शक्नुवन्ति इत्येवं सूत्रभेदाः अस्माभिः अवलोकिताः। सूत्रभेदेषु यदि सन्देहाः स्युः भवन्तः प्रश्नान् कर्तुम् अर्हन्ति, कक्षा तावत् अत्र अवतीयते, यदि प्रश्नास्सन्ति चेत् प्रष्टुं मुक्तावकाशः अस्ति। पुनश्च अग्रिमकक्षायाम् आदेशनिमित्तस्थानी इत्यादीनां विषये अवगच्छामः। आदेशाः, आदेशः नाम कः, आगमः नाम कः, स्थानी नाम कः, निमित्तं नाम किम् इति क्रमेण किञ्चित् किञ्चित् अवगत्य अष्टाध्याय्याः अष्टाध्यायीसूत्राणां विभागः अष्टाध्यायीग्रन्थे कथं कृतः इति विषये अवगच्छामः अग्रिमकक्षायाम्। यदि प्रश्नास्सन्ति चेत् प्रष्टुमर्हन्ति। अस्तु, तर्हि मङ्गलं कुर्मः। येनाक्षरतमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः।